गणेशाय नमः ॐ वागर्थाविव सम्प्रत्तौ वागर्थप्रतिपत्तये जगदः पितरं वन्दे पार्वतीपरमेश्वरौ ॐ येनाक्षरसमाम्नायम् अधिगम्य महेश्वरात् कृष्णं कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः ॐ सहनाववतु सहनौ भुनक्तु सह वीर्यं करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै ॐ शान्ति शान्ति शान्तिः ब्रह्मानन्दं परमसुखदं केवलं ज्ञानमूर्तिं द्वन्द्वातीतं गगनसदृशं तत्त्वमस्यादिलक्ष्यम् एकं नित्यं विमलम् अचलं सर्वधि साक्षीभूतं भावातीतं त्रिगुणरहितं सद्गुरुं तं नमामि ॐ श्रीगुरुभ्यो नमः हरिः ॐ
उत्तमं भगिनि सुन्दरं
धन्यवादः
अस्तु पुनस्मरणार्थं झटिति किं हरि वदतु भगिनी सर्वाणि रूपाणि
हरिः हरि हरिवत् भगिनि हरिः हरि हरयः हे हरि हे हे हरे हे हरि हे हरयः हरिं हरि हरीण् हरिणा हरिभ्यां हरिभिः हरये हरिभ्यां हरिभ्यः हरेः हरिभ्यां हरिभ्यः हरेः हर्योः हरीणां हरौ हर्योः हरिषु
उत्तमम् उत्तमं मधु
मधु
इति नपुंसकलिङ्गं प्रातिपदिकम्
आम्
एकवारं वदतु झटिति
किञ्चित् दृष्ट्वा वदामि वा
हा करोतु भगिनि
आम् मधु मधुनी मधुनि हे मधो हे मधु हे मधु मधुनि हे मधुनि मधु मधुनि मधुनि मधुना मधुभ्यां मधुभिः मधुने मधुभ्यां मधुभ्यः मधुनः मधुभ्यां मधुभ्यः मधुनः मधुनोः मधूनां मधुनि मधुनोः मधुषु
उत्तमम् अधुना रुकारान्त मातृ करोतु भगिनि
मातृ मातृ माता माता मातरौ मातरः हे मातः हे मातरौ हे मातरः मातरं मातरौ मातृ मातृ मातृः मात्रा मातृभ्यां मातृभिः मात्रे मातृभ्यां मातृभ्यः मातुः मातृभ्यां मातृभ्यः मातुः मात्रोः मातॄणां मातरि मात्रोः मातृषु
अस्तु उत्तमं तदेव दुहितृ अस्ति
दुहितृ
मातृ तथा दुहितृ वदतु भगिनि
दुहिता दुहितारौ दुहितारः हे दुहितः
एकनिमेषं मातरौ मातृ मातरौ दुहिता
दुहितारौ
दुहितारौ वा मातारौ तु नास्ति
मातरौ दुहितरौ दुहितरौ आम् दुहिता दुहितरौ दुहितारः दुहितरः दुहितरः ह्रस्व अस्ति दुहितरः
कर्म अस्ति कर्म न कर् एकम् अन्यरूपम् अस्ति तथा यथा भवती उक्तवती वारं वारं तत्तु कर्तारौ कर्तारः इति कर्ता अस्ति चेत् तत् भवति किन्तु कर्ता कुत्र अस्ति कर्तृ पश्यतु एकवारं कर्तृ
आम् आम् पुं ऋकारान्त पुंलिङ्गम् अस्ति चेत् दीर्घ भवति
तदेव किन्तु पितृ पितरौ एव इत्युक्ते भ्रातृ जामातृ पितृ देवृ सव्येष्ठृ इति एते सर्वे दीर्घत्वं न आयाति किन्तु दातृ कर्तृ धातृ वक्तृ योधृ एते सर्वेषां दीर्घ आकारान्त आयाति ते सर्वे पुंलिङ्गप्रातिपदिकानि अस्तु इत्युक्ते भेदः कः पुंलिङ्गम् अस्ति चेत् अपि च अधिकतया किं सम्बन्धशब्दः नास्ति चेत् पारिवारिकसम्बन्धशब्दः नास्ति चेत् दीर्घत्वं भवति वा इत्युक्ते भ्रातृ पितृ जामातृ ते तु सर्वे पारिवारिकसम्बन्ध देवृ किन्तु कर्तृ धातृ वक्तृ दातृ एते सर्वेषाम् अर्थः किञ्चित् भिन्ना अस्ति न
आं भगिनि आम्
इत्युक्ते आ कुत्र आयाति यत्र पारिवारिकसम्बन्धः नास्ति चेत् दीर्घत्वं भवति इति मन्ये किन्तु अपि स्त्रीलिङ्गम् अपि यदि पारिवारिकसम्बन्ध अस्ति चेत् यथा मातृ यातृ दुहितृ दीर्घत्वं न भवति अपि च नपुंसकलिङ्गं दातृ अस्ति चेत् अपि दीर्घत्वं न भवति अस्तु मन्ये किञ्चित् एक
नमस्कारः भगिनि नमस्कारः क्षम्यतां क्षम्यताम्
नास्ति चिन्ता भगिनि वयं किं कुर्मः पुनस्मरणार्थं सुधा भगिनी ऋकारान्त विभक्तिरूपाणि एकवारं वदति हा वदतु भगिनी सुधा भगिनी सम्पूर्णतया वदतु
दातृ भगिनि
मातृ
मातृ मातृ माता मातरौ मातरः हे मातः हे मातरौ हे मातरः मातरं मातरौ मातृः मात्रा मातृभ्यां मातृभिः मात्रे मातृभ्यां मातृभ्यः मातुः मातृभ्यां मातृभ्यः मातुः मात्रोः मातॄणां मातरि मात्रोः मातृषु
उत्तमम् उत्तमं तदेव अस्तु तथा एव दुहितृ अस्ति दीप्षिका भगिनी दुहितृ एकवारं प्रयत्नं करोतु। पापाजी प्रणाम। अस्तु दीक्षिता भगिनी, न श्रूयते भगिनी।
दुहितृ मतिवतां भगिनी,
न न न रुकारान्त स्त्रीलिङ्ग मातृवत्।
अच्छा रुकारान्त स्त्री, अच्छा रुकारान्त स्त्रीलिङ्ग, हा माता, ओके हा, तो दुहितृ, ओके हा आं भगिनी, दुहितृ दुहिता दुहिता दुहितरौ दुहितरः हे दुहितः हे दुहितरौ हे दुहितरः दुहितरं दुहितरौ दुहितृः दुहित्रा दुहितृभ्यां दुहितृभिः दुहित्रे दुहितृभ्यां दुहितृभ्यः दुहितुः दुहितृभ्यां दुहितृभ्यः दुहितुः दुहित्रोः दुहितॄणां दुहित्तरी दुहित्रोः दुहितृषु
उत्तमम् उत्तमं दुहितृ दुहितृ इत्युक्ते जानाति वा
डाटर्
डाटर् अपि च डाटर् इन् लॉ
डाटर्
इत्युक्ते किमर्थं दुहितृ अर्थः कः गृहद्वयं तस्य तया कारणेन हित भवति इत्युक्ते अवगतं वा
आं भगिनि
गृहद्वयं गृहे द्वे गृहे तस्य तस्याः का तस्याः कारणेन हित भवति सो दुहितृ उत्तमम् उत्तमम् अस्तु अन्यथा अधुना दीर्घत्वं भवति आकार सोरि पुंलिङ्गम् अस्ति चेत् आकारान्त पारिवारिकसम्बन्धः नास्ति चेत् दातृ दातृ पापजी ओ नास्ति तत्र पापजी अस्तु सुधा भगिनी भवतु भवती दातृ वदतु
दातृ दाता दातारौ दातारः हे दातः हे दातारौ हे दातारः दातारं दातारौ दातॄण् दात्रा दातृभ्यां दातृभिः दात्रे दातृभ्यां दातृभ्यः दातुः दातृभ्यां दातृभ्यः दातुः दात्रोः दातॄणां दातरि दात्रोः दातृषु
इति भेदः नास्ति केवल दातारौ दातारः अपि च अन्यथा नास्ति इति मन्ये अन्यथा नास्ति एकमेव स्थाने
आं भगिनि प्रथमविभक्ति द्वि बहुवचने अपि द्वितीयविभक्ति द्विबहुवचने एव
अपि च सम्बोधनप्रथम
आं सम्बोधनप्रथम
दातारौ दातारौ दातारः अपि च पिता अस्ति चेत् वदतु भगिनि
पिता
पितृ
पितृ पिता पितरौ पितरः हे पितः हे पितरौ हे पितरः पितरं पितरौ पितॄण पित्रा पितृभ्यां पितृभिः पित्रे पितृभ्यां पितृभ्यः पितुः पितृभ्यां पितृभ्यः पितुः पित्रोः पितॄणां पितरि पित्रोः पितृषु.
ऋकारान्त इत्युक्ते मुख्यतया स्थूलरूपेण रूपद्वयमेव सर्वाणि रूपाणि वद भवन्ति. अस्तु अस्तु, किञ्चित् स्पष्टता जायते तत्र. अस्तु, एकवारं भगिनी ऋकारान्त नपुंसकलिङ्गं दातृ अपि पठतु त्रिंशत् समये पुटे. नपुंसकलिङ्गम् अस्ति चेत् किञ्चित् भिन्नरूपाणि भिन्नानि रूपाणि वदतु. त्रिंशत् भगिनि.
आम्. दातृ दातॄणि दातॄणि हे दातः हे दातृ हे दातॄणि हे दातॄणि दातृ दातॄणि दातॄणि दातॄणा दात्रा दातृभ्यां दातृभिः दातॄणे दात्रे दातृभ्यां दातृभ्यः दातॄणः दातुः दातृभ्यां दातृभ्यः दातॄणः दातुः दातॄणोः दात्रोः दातॄणां दातॄणि दातरि दातॄणोः दात्रोः दातृषु.
इत्युक्ते अत्र सर्वाणि रूपाणि प्रथमद्वितीय अपि च सम्बोधनप्रथमदीर्घत्वम् एव भवति. दातॄणी एव आयाति अन्ते. किन्तु भेदः कः? द्विवचने बहुवचने ह्रस्वरुकारान्त दीर्घरुकारान्त एव. ऋणी अपि च ऋणि दातॄणी दातॄणि एकमेव भेदः अस्ति तत्र. अपि च वयं तु जानीमः प्रथमद्वितीयरूपाणि समानानि. अपि च किं रूपद्वयं सम्भवति सर्वे तृतीयचतुर्थी पञ्चमी षष्टि अपि च सप्तमी. दातॄणा दात्रा इत्युक्ते दातॄणा कुत्र आयाति कुतः आयाति? दातॄणा पुंलिङ्गम् अस्ति चेत् तानि रूपाणि न आयन्ति. इत्युक्ते केवल नपुंसकलिङ्गरूपे दातॄणा आयाति. अन्यथा दात्रा दात्रे धातुः धातुः दातरि तु सामान्यरूपमेव. किन्तु अत्र हरिणा हरिवत् किञ्चित् रूपाणि आयान्ति इति मन्ये. दातॄणा दातॄणे दातॄणः दातॄणः दातॄणि अपि च षष्टि सप्तमी द्विवचने दातॄणोः दात्रोः तु पुंलिङ्गमपि अस्ति. दात्रोः दात्रोः किन्तु अत्र अस्तु. अवगतं भगिनि?
आं भगिनि.
वदतु एकवारं भेदः कः अत्र?
भेदः अस्ति दातृ प्रथमद्वितीयविभक्ति द्विवचने बहुवचने दीर्घणी इति भवति, द्विवचने तृणी इति भवति, बहुवचने तृणी इति भवति. तृतीय आरब्ध सप्तमी पर्यन्तं सर्वदा सर्वाणि रूपाणि पुंलिङ्गं रूप एव समानेव दात्रा दात्रे धातुः इति. तृतीय आरब्ध सप्तमी पर्यन्तं अन्य एकं रूपम् अस्ति दातृणा, नकार अस्ति अपि.
हरिवतायति
हरिवत् आम् हरिणा दातृणा
हरि हरिणा हरये दातृणे दातॄणः आयति इत्युक्ते नास्ति दातॄणः कुतः गुरुणः अस्तु तस्य उपरि गुरु अस्ति गुरु यथा गुरु अस्ति तथा दातृ अस्ति अत्र पश्यतु एकवारं गुरुणा गुरुणे गुरुणः गुरुणः गुरुणि दातृणा दातृणे दातृणः दातृणः दातृणि इत्युक्ते नपुंसकलिङ्गरूपाणि एव गुरुवर्तायति नपुंसकलिङ्गगुरुवतायति उत्तमम् अपि च द्विवचने षष्टि सप्तमी अपि गुरुणोः गुरुणोः अत्र दातृणोः दातृणोः अपि विकल्पेन आयाति दातॄणां गुरूणाम् अस्तु उत्तमम् कविता भगिनी स्वागतम्
धन्यवादः नमस्कारः कः पृष्टः
अधुना किञ्चित् पुनर्स्मरणार्थमेव वयं शब्दमञ्जर्यां विभक्तिरूपाणि एकवारं वदामः किन्तु अधुना यावत् पुटसङ्ख्या वदतु पुटसङ्ख्या यावत् तावत् पञ्चपञ्चाशत्तमे पुटे यावत् तावत् यावत् तावत् वयं पठितवन्तः अपि च स्वस्यैः वाक्यैः रचयन्तु इति अहं गृहपाठरूपेण वदति उक्तवती अस्तु अस्तु यावत् तावत् एकमेकं वाक्यं नूतनवाक्यं रचयतु सुधा भगिनी एकं वदतु
यावत् तावत् अहं यावत् चायम् इच्छामि तावत् मम पतिः न इच्छति
चायं वा अहं यावत् किं कर्मपदं किम्
अहं यावत् चायम् इच्छामि
चायम्
आम्
प्रातिपदिकं किम् छा या वा दीर्घ आ वा
छाय इति ह्रस्व एव
छाय छाय इत्युक्ते
चाय टि
ओ चाय अस्तु अस्तु चाय अहं छाय इति श्रुतवती महाप्राण श्रुतवती भगिनि
ओ न न न महाप्राण न अल्पप्राणमेव चाय
अल्पप्राण अस्तु चायं
चायं
अस्तु अस्तु सुन्दरं पुनः एकवारं वदतु
अहं यावत् चायम् इच्छामि तावत् मम पतिः न इच्छति
न इच्छति अहं यावत् चायं प्रतिदिनम् इच्छामि तावत् मम पतिः न इच्छति उत्तमम् उत्तमं कविता भगिनी एकं वदतु वाक्यं यावत् तावत्
भगिनी यावत् तावत् मतलब जब और तब या as long as and until जैसे मैं स्पोकन संस्कृत में देख रही हूँ
जब और तब ना यावत् जितना उतना
अच्छा 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 जितना उतना
जितना उतना इत्युक्ते क्वांटिटी अस्ति किंतु किमपि संख्या नास्ति तत्र यावत् तावत् यथा जलम् जलस्य विषये किमपि संख्या नास्ति इत्युक्ते सागरे कुत्र इत्युक्ते सागरे कियत् जलम् अस्ति नो इतना ही बोलेंगे ना बहुत सारा है दो पानी है एक पानी है तो नहीं बोलते हम लोग
हाँ मैं प्रयास करती हूँ
हाँ
जितना और उतना एक मिनट से लिख लेते हैं गीतांजलि सुधा भगिन्योः यावत् संस्कृतम् अभ्यासं भवति तावत् मम न भवति
पुनः वदतु गीतांजलि भगिनी सुधा भगिन्योः
ओके गीतांजलि भगिनी सुधा भगिनी योः यावत् संस्कृतम् अभ्यासं भवति तावत् मम न भवति
तत्र कर्तृपदं किम्
होना जितना है उतना मुझे नहीं है कर्तृपदं आप दोनों अच्छा तो आप दोनों में द्वितीय लगेगी नहीं प्रथमा लगेगी
नो कर्तृपदं किं भगिन्योः इत्युक्ते कर्तृपदं तु भगिनी एव भगिन्योः
अच्छा नहीं वो तो सप्तमी द्वितीय लिया था बट अच्छा फर्स्ट आएगा सॉरी न्यौ भगिन्यौ
भगिन्यौ इत्युक्ते वाक्ये कर्तृपदं किम्
देखिए मैं हिंदी में बोलती हूँ जितना गीतांजलि भगिनी और सुधा भगिनी को संस्कृत का अभ्यास है उतना मेरे नहीं है
हाँ कर्तृपदं किम किम तत्र हिंदी भाषायां वाक्ये वदतु कर्तृपदं
गीतांजलि भगिनी और सुधा भगिनी
ना 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 कर्तृपदं इत्युक्ते लघु वाक्यं वदतु
अभ्यास होना
अभ्यास
भवति
अभ्यास इति कर्तृपदम्
अच्छा अच्छा अभ्यास ही कर्तृपदम् है
कर्तृपदम् इत्युक्ते अभ्यास
आहा हाँ सॉरी वापस बोलो अभी
हाँ
वजह से एक बार अभ्यास में अपन सुनने का तो यावत् गीतांजलि
विभक्ति रूपं किं भगिन्योः
भगिन्योः तो भगिन्योः सप्तमी द्वितीया सोच रही थी मैं, ये नदी का देखकर शायद से गलत होंगी मैं, नदी में जितना जल है, सो आप दोनों में जितना अभ्यास है, आप दोनों का जितना रस, षष्ठी द्वितीय लगेगी।
हाँ षष्ठी उत्तम।
हाँ शब्द सेम है बट हाँ मेरा एक्सप्लेनेशन और समझ गलत थी, अभी ठीक है। गीतांजलि भगिनी सुधा भगिन्योः संस्कृतम अभ्यास, एक मिनट मैं उसका लिंक देख लेती हूँ। अभ्यास मैस्कुलिन, हाँ अभ्यास, तो अभ्यास कर्तु है तो इसमें प्रथमा विभक्ति द्विवचन लगेगा।
अस्तु अभ्या इत्युक्ते भवत्याः वाक्ये क्रियापदं किं सकर्मक वा अकर्मक वा
होना बताते हैं टू बी। अकर्मक भू धातु। तो प्रथमा एक वचन
एव किमर्थम् अभ्यासः एव।
हाँ आम् गीतांजलि भगिनी सुधा भगिन्योः संस्कृतम् अभ्यासः यावत् भवति तावत् मम न भवति।
हाँ तावत् मम न भवति इत्युक्ते अधुना किम् अभवत् भगिन्योः यावत् संस्कृत अभ्यासः भवति तावत् मम अभ्यासः न भवति।
ओके संस्कृत अभ्यासः, तो संस्कृत इधर विशेषण है, वो द्वितीय नहीं लेगा क्योंकि वो कर्मन
संस्कृत संस्कृतः संस्कृतम तु संस्कृत अभ्यासः समासः भवति इति प्रातिपदिकं स्वीकृत्य समासः भवति संस्कृताभ्यास
आम्
एकमेव पदम् अस्ति चेत् अहं वदामि संस्कृताभ्यासः अस्ति भवति इति।
भगिनी आज दीपशिका भगिनी और पापा जी नहीं जुड़े हैं
आज ते किंचित अहम मन्ये संपर्क क्लिष्ट भवति अत्र आयन्ति किन्तु एकवारं क्लिष्ट अस्ति तत्र इति मन्ये।
आम क्लिष्ट मन्ने के नेटवर्क में प्रॉब्लम है।
हाँ इति मन्ये इति प्रायम अस्ति एव।
Okay. और ये वाला रिकॉर्ड कर रहे हैं आप क्योंकि मुझे नहीं आया मैसेज जब मैंने ज्वाइन किया।
आम भाई
मतलब ओके अस्तु भगिनी धन्यवाद।
हाँ अस्तु अधुना यावत् तावत् एकवारं अच्छा अन्य किमपि वाक्यं वदतु सुधा भगिनी।
आम भगिनी यावत् शीघ्रं गृहकार्यं कर्तुं शक्नोमि तावत् शीघ्रं मन्दिरं गमिष्यामि।
तावत् शीघ्रं मन्दिरं गमिष्यामि इत्युक्ते शीघ्रमेव भवति द्वे अपि कृतवती। अस्तु
जितना जल्दी घर का काम कर लूं उतना जल्दी मंदिर जाऊंगी।
हाँ
पुनः वदतु एकवारं।
यावत् शीघ्रं गृहकार्यं कर्तुं शक्नोमि तावत् शीघ्रं मन्दिरं गमिष्यामि।
गमिष्यामि
कर लूं घर का काम कर लूं है ना कर पाऊं
कर पाऊं कर्तुं शक्नोमि
जितना जल्दी घर का काम कर पाऊं उतना जल्दी मंदिर
जाऊंगी
जाऊंगी गमिष्यामि इतना जल्दी मंदिर जाऊंगी। उत्तम। कविता भगिनी वदतु एकम अन्य वाक्य।
मैं थोड़ा सोच के बताती हूँ, सॉरी, तब तक सुधा भगिनी अगर बोल।
हाँ सुधा भगिनी पठतु भगिनी, यावत तावत पुट संख्या एक षट, हाँ षट पंचाशत समय पुटे
चतुर्थ वाक्य वा भगिनी।
हाँ वदतु।
सः यावत् वदति तावत् तावत् शीघ्रम् अहं न वक्तुं शक्नोमि।
हा सः यावत् वदति, किन्तु सः यावत् वदति तु शीघ्रं नास्ति तत्र, जितना वो बोलता है उतना जल्दी मैं नहीं बोल सकती इति वा?
आम भगिनी, आम।
किंतु तत्र तुलना किम अस्ति तत्र, कस्य तुलना अस्ति तत्र, यावत् इत्युक्ते क्वांटिटी वा क्रिया विशेषण वा? तत्र शीघ्रम् अस्ति चेत् तुलना कस्या भवति? विशेषण तुलना भवति, किन्तु अत्र तु सः यावत् वदति, सः यावत् शीघ्रं वदति तथा मया न शक्यते। वदतु पुनः एकवारम्।
सः यावत् वदति तावत् शीघ्रम् अहं न वक्तुं शक्नोमि इति अहं प्रथमतया
युक्ते सः यावत् वदति तावत् सः यावत् वदति तावत् सः यावत् वदति इत्युक्ते किम्?
ओ कितना बोलता है उतना मैं नहीं बोलूंगी।
हाँ इट्स अ क्वांटिटी ना,
वह क्वांटिटी बोलता
है। सो इज द क्वांटिटी, द तुलना इज अबाउट क्वांटिटी नॉट अबाउट क्वालिटी। It is, if you say shigram, then what happens to the shigram? Tavat shigram aham.
Only if shigram is mentioned with the first statement, then I will be able to use shigram in the second one too?
I think so, because the tulana changes otherwise, no?
Okay, yeah.
Adhuna, kasya tulana asti, अधुना तु किमपि नास्ति तत्र, क्रियाविशेषण नास्ति, केवल यावत् वदति, तावत् अहं न वदामि, तावत् अहं न इच्छामि इति सर्वाणि भवितुम् अर्हति, किन्तु शीघ्रम् अस्ति चेत् किञ्चित् क्रियाविशेषणस्य तुलना कृतवती वा, कुतः आयाति इति मनसि प्रश्न उदेति।
क्षम्यताम्, आम किञ्चित् वदामि।
वदतु।
पीछे पृष्ठभागे जवाब देखने पर ये उत्तर है वहाँ पर, सः यावत् वदति तावत् सा न वदति। जब तक वो बात करते हैं शायद से हस्बैंड, तब तक वो नहीं बात करती शायद से वाइफ।
ना, जब तक ना भगिनी, यावत
ओ, हाँ, जब तक तब तक नहीं है, जितना उतना। हाँ हाँ, ही मतलब जितना वो बात करते पुरुष उतना वे बात नहीं करती स्त्री।
सत्य। अस्तु अस्तु, अग्रिमं पठतु कविता भगिनी।
मम भगिनी यावत् पठति मेरी बहन जितना पढ़ती है, तावत अहम न पठामी।
तावत अहम न पठामी, तावत मम भ्रातृ, तावत मम भ्रात्रा भ्रात्रा न पठति। यावत मम भगिनी पठति तावत किम्, भ्राता वा भ्रातृ भ्राता भवति इति मन्ये, भ्रातृ भ्राता न पठति, भ्राता न पठति। उत्तमम् उत्तमम्। अग्रिमं पठतु सुधा भगिनी।
आं भगिनि, अहं मधुरं यावत् इच्छामि तावत् मम गृहे कोऽपि न इच्छन्ति।
अहं मधुरं यावत् इच्छामि तावत् मम गृहे कोऽपि अन्य न इच्छति, न इच्छति। उत्तमम्। अग्रिमं पठतु कविता भगिनी।
आम्, मधुरं क्या होगा,
मधुरम् इत्युक्ते सुधा भगिनी
स्वीट्।
ओके, मिष्ठान्,
मिष्ठान्।
ओके, सुधा यावत् क्रीडति, जितना खेलती है, तावत् अहं दूरदर्शनं पश्यामि।
अस्तु अस्तु, उत्तमम् उत्तमम्। अस्तु, यथा तथा, पठतु सुधा भगिनी। यथा तथा इत्युक्ते
if and when or जब तब, नहीं पता नहीं, यथा सचिन तेंदुलकर क्रीडति तथा अहं न क्रीडामि। अच्छा, जैसा तैसा,
जैसा वैसा,
यादृशी रीत्या तादृशी रीत्या, जिस तरीके से, जैसा जैसे वैसे, जैसा वैसा, इन द मैनर इन विच, इन दैट मैनर, यथा तथा। पठतु सुधा भगिनी।
उदाहरणं दृष्ट्वा अनन्तरवाक्येषु रिक्तानि स्थलानि उचितैः शब्दैः पूरयतु। पूरयतु इति क्रियापदम् अस्ति, प्रथमपुरुष एकवचन लोट् लकार अस्ति, पूर्धातुतः आयाति, उचितैः शब्दैः, उचितैः शब्दैः द्वयोः मध्ये विशेषणविशेष्यभाव अस्ति, तृतीया विभक्ति, तृतीया बहुवचनं, उचितैः शब्दैः, रिक्तानि स्थलानि द्वयोः मध्ये अपि विशेषणविशेष्यभावम् अस्ति, द्वितीया विभक्ति बहुवचन कर्मपदम् अस्ति, अनन्तरवाक्येषु इति सप्तमे बहुवचनम् अस्ति, उदाहरणं दृष्ट्वा, दृष्ट्वा इति त्वान्तपदम् अस्ति, उदाहरणम् इति कर्मपदम् अस्ति।
उत्तमम् उत्तमं। लघुवाक्यम्
रिक्तानि स्थलानि पूरयतु।
स्थलानि पूरयतु, शब्दैः पूरयतु। कर्तृपदं किम्?
कर्तृपदं भवान् भवति पूरयतु।
भवान् भवति पूरयतु। हा पठतु प्रथमम्।
उदाहरणं यथा सचिन तेंदुलकर क्रीडति तथा अहं न क्रीडामि।
इत्युक्ते
जैसा सचिन तेंदुलकर खेलता है वैसा मैं नहीं खेलूंगी।
तत्र यावत् अस्ति चेत् वदतु।
यावत् सचिन तेंदुलकर क्रीडति तावत् अहं न क्रीडामि।
इत्युक्ते भेदः कः तत्र?
यावत् यथा तथा जैसा वो खेल रहा है वैसा मैं नहीं खेलूंगी। यावत् तावत् कितना
यावत् तावत् इज द क्वांटिटी एंड यथा तथा इज द क्वांटम। नहीं नहीं क्वांटम एंड दिस इज क्वालिटी, सॉरी
क्वालिटी
वो संख्या है और ये मतलब क्वालिटी है कि वैसा ही नहीं कर पाएंगे जैसा प्रोसेस है या जो भी है विधि है।
हाँ, तत् रीत्या अहम् न क्रीडामि। उत्तमं। यथा सचिन तेंदुलकर क्रीडति तथा अहम् न क्रीडामि। अग्रिमं पठतु कविता भगिनी।
यथा भीमसेन जोशी गायति तथा अन्यः न गायति। जैसा भीमसेन जोशी जी गाते हैं वैसा दूसरा कोई भी नहीं गाता।
यथा तथा। अग्रिमं पठतु एकवारं कविता भगिनी, प्रयत्नं करोतु। कालिदासः।
यथा कालिदासः काव्यं लिखितवान् तथा अन्यः कोपि ही न लिखितवान्।
हाँ, तथा अन्य कोपि न लिखितवान्। यथा कालिदासः लिखितवान् काव्यं तथा अन्य कोपि न लिखितवान् अपि च लिखितवती किमपि। काव्यं न लिखितवान्। काव्यं कीदृशपदम्?
काव्यम काव्य एक मिनट मैं आपको एग्जैक्टली बताऊं। काव्य काव्य नपुंसक लिंग लिंग पदम और यहाँ पर एक वच द्वितीय विभक्ति एक वचन रूपम।
हाँ, काव्यम काव्यम न लिखितवान्। काव्यम न लिखितवान् अत्र कर्मपदमस्ति। कः लिखितवान्? किं लिखितवान्? काव्यं। काव्यं लिखितवान्, कर्मपदमस्ति। उत्तमम्। अग्रिमं पठतु सुधा भगिनी।
यथा यथा रविवर्मा चित्रं चित्रयति तथा तथा अन्य कोऽपि न चित्रयन्ति।
अन्य कोऽपि न चित्रयति। लङ् अस्ति चेत् चित्रयति
चित्रयति लङ् अस्ति चेत् यथा रविवर्मा चित्रं चित्रयति तथा अन्य कोऽपि न अचित्रयत्।
अचित्रयत् अचित्रयत् इत्युक्ते लङ् अस्ति चेत् इत्युक्ते न चित्रयत् अभी तक किसी ने नहीं बनाया। आगे बनाएगा कि नहीं नहीं बोल रहे है ना. न चित्रयत, लंग अस्ति चेत न चित्रयत. उत्तमम्. रवि वर्मा, चित्रं लिखति अपि समीचीनं, रचयति अपि समीचीनं, कल्पयति अपि समीचीनं. कल्पते वा, कल्पते इति मन्ये, कल्पते. कल्पते अस्तु, कल्पते. एकनिमेषं, कल्प विधीयते असौ विधि कल्पते. किमर्थम् अष्टाध्यायी मध्ये नास्ति पुंलिङ्गम्? अस्तु, कल्पते एकवारं पश्यतु. कल्पते संस्कृत डिक्शनरी मध्ये पश्यतु एकवारं सर्वे. कल्पते अस्ति चेत् बहवः अर्थाः सन्ति तत्र, किन्तु प्रोड्यूस् अपि अस्ति, टु क्रियेट् अपि अस्ति. कल्पते इत्युक्ते यथा रविवर्मा चित्रं कल्पते. कल्पते
कल्पते स्पोकन् संस्कृत मध्ये क्लर्प् इति धातु अस्ति.
अस्तु,
अष्टाध्यायी मध्ये कल्पते इति कृप् to be able, to be capable, to be powerful iti asti.
Krupa anya asti bhagini.
Krupa anya asti?
Haan. Krupa anya asti. Klurpa nasti tatra va?
Haan, aam bhagini.
Eka nimesha kalpati. कल्पते. हा, अधुना पश्यतु भगिनी, कृप् कृप् अस्ति चेत्. ओ अस्तु अस्तु अस्तु, कल्पते अस्तु. शब्दकल्पद्रुमा मध्ये कल्पते. कल्पते अस्ति. कल्पते क्लुर्प् क्लुर्प् एव, किन्तु यथा भवती उक्तवती टु बि एव केपबल्, कृप् कृप् इति एव अस्ति वा भगिनि? कृप् अस्ति चेत् आत्मनेपदी कल्पते, कल्पेते, कल्पन्ते, कल्पसे, कल्पेते, कल्पध्वे. अस्तु, कृप् बहु किमपि तत्र भवति एव. कृप् लोकात् मध्ये लु आयाति. आयाति लु कर्तरी शब् कृप् कृपोरोल इति सूत्रेण मध्ये ऋ आयाति भगिनि, ऋकारस्य स्थाने लृ आयाति, तदनन्तरं गुण भूत्वा ल भवति। अस्तु, अवगतं वा?
आं भगिनि।
हा, इत्युक्ते कृप् कृप् एव धातु अस्ति, कृप् स्थाने रु स्थाने लृ आयाति, लृ स्थाने गुण भूत्वा लु भवति। अस्तु, उत्तमम्, उत्तमम्, न जानाति तत्र कृप्। अस्तु, कल्पते कल्पते। अस्तु, इति योजयित्वा वाक्यं रचयतु। यथा
यथा रविवर्मा चित्रं कल्पते तथा अन्य कोऽपि न न
लङ् अस्ति चेत्
लङ् न अकल्पत
अल् अकल्पत, आत्मनेपदी अस्ति, उत्तमं, न अकल्पत, उत्तमम्, न अकल्पत, उत्तमं। हा, अग्रिमं पठतु कविता भगिनी।
आं भगिनि, यथा मम मित्रं गायति तथा अहं न गायामि अथवा अहं नाटयामि।
अहं तथा अहं न गायामि न नाटयामि,
न नहीं, आई एम सेइंग वन इन पॉजिटिव के वैसा मैं डांस करती हूँ, एंड वन इन नेगेटिव के वैसा मैं नहीं गाती। यथा मम मित्रं गायति तथा अहं न गायामि, अल्टरनेटिवली यथा मम मित्रं गायति तथा अहं नाटयामि।
हा, तथा अहं नाटयामि, अस्तु, तथा तथा तस्य तस्य किं पार्टनर् अस्ति चेत्, डान्स् पार्टनर् अस्ति चेत् किं पार्टनर्
तथा और वैसा हाँ म्यूजिकल इंस्ट्रूमेंट बजाते हैं वैसा कुछ।
महाभागी प्रतियोगिनी तथा तस्य महाभागी न गायति, यथा मम मित्रं गायति तथा तस्य महाभागी न गायति। जैसा मेरा मित्र गाता है वैसा उनका पार्टनर नहीं गाता, उनका गाने वाला पार्टनर नहीं गाता। उत्तमम्, उत्तमम्, नाटयामि अपि उत्तमं भगिनि, अहं न नाटयामि, उत्तमम्। अस्तु, अग्रिमं पठतु सुधा भगिनि।
यथा भवान् पाठयति तथा एव अहं पठितुम् इच्छामि।
हा, तथा एव अहं पठितुम् इच्छामि, किन्तु समीचीनं वा? इत्युक्ते जैसा आप पढ़ाते हो ऐसा मैं पढ़ना चाहती हूँ। हाँ, समीचीनमेव।
पुनः वदतु।
यथा भवान् पाठयति तथा एव अहं पठितुम् इच्छामि।
तथा एव अहं पठितुम् इच्छामि, उत्तमम्। अग्रिमं पठतु कविता भगिनी।
यथा सः उपन्यासं करोति तथा उसका तस्य मित्र न करोति, मित्रम न करोति। जैसा वो उपन्यास मतलब के नॉवेल कर है ना, नॉवेल लिखा मतलब उपन्यास नॉवेल करता है, वैसा उसका दोस्त नहीं करता। यथा सह उपन्यासम करोति तथा तस्य मित्रम न करोति,
न करोति। उत्तमम्। उपन्यासम करोति, उत्तमम्। करोति अपि समीचीनम्। एकवारं पश्यतु, चुके रचयति, करोति, लिखति, उत्तमम्। अग्रिमं पठतु सुधा भगिनी।
आं भगिनि, यथा मम अध्यापकः संस्कृतं जानाति तथा वयं न जानन्ति।
वयं सर्वे न जानन्ति, तथा वयं वयं छात्राः तथा वयं छात्राः
न जानन्ति,
न जानन्ति। वयं
हम सब, वयं के साथ तो कुछ मह वाला जुड़ेगा ना, वह मह
न, वयं इत्युक्ते वयं विशेषण विशेष्य रूपम् अस्ति चेत् वयं छात्राः। हम कौन, कौन हम, कौन हम, छात्रा छात्राः, हम विद्यार्थी लोग इत्युक्ते कीदृश वयं छात्राः, वयं विशेषण विशेष्यरूपम् अस्ति अत्र तु।
कविता भगिनी उक्तवती समीचीनमेव, वय न जानीमः इति
विषये। पुनः वदतु।
यथा मम अध्यापकः संस्कृतं जानाति तथा वयं सर्वे न जानीमः।
तथा वयं,
दिस् इस् वाट् आई वाज़ सेइंग्।
आं भगिनि, आं समीचीनमेव।
तथा वयं सर्वे छात्राः न जानीमः। सुन्दरं। क्रियापदं तु उत्तमपुरुष एक बहुवचनरूपमेव, समीचीनं, सुन्दरं, तदेव उत्तमम्। अस्तु, स्वस्यैः वाक्यैः एकवारं प्रयत्न कुर्मः। वदतु
भगिनी। अच्छा, नहीं, इसके पहले के एक्सरसाइज में लास्ट लाइन में सुधा भगिनी आ गए थे, और ये वाली एक्सरसाइज के लास्ट लाइन में गीतांजलि भगिनी आ गए।
अस्ति वा, उत्तमम् उत्तमम् उत्तमम्। किन्तु मम अध्यापक इत्युक्ते अध्यापक तु अहं तु केवल सखी एव।
That is your modesty, अध्यापिका। सो ओके, स्वस्य वाक्य एव अस्ति, यथा हम दोनों के, तो वेट, आई विल ट्राई इन द द्वितीय वचन, आवाम नहीं, हम दोनों के, तो उसका षष्ठी, सॉरी, एक मिनट, मैं थोड़ा ठीक बोलना चाहती हूँ, इसीलिए
आवयोहो,
हाँ आवयोहो, नहीं, ये षष्ठी द्विवचन है ना, मैं का, आवयोः अध्यापिका संस्कृतं पाठयति तथा हम दोनों आवयोः न जानीवः, सॉरी, तथा
अहम् आवां वयम्, आवां तथा आवाम,
हाँ हाँ ओके, मैं ऐसे बोलना चाहती हूँ, जैसे हम दोनों की अध्यापिका पढ़ाती है, वैसे मैं नहीं पढ़ा सकती, तो यथा आवयोः अध्यापिका संस्कृतं पाठयति तथा अहं न पठामि. ठीक है,
तथा अहं न पठामि, जैसे वो पढ़ाती है वैसे मैं नहीं पढ़ती.
नहीं, पठामि पाठ, अच्छा टू टीच का, हाँ पाठयामि, तथा अहं न पाठयामि. हाँ, अभी इसको भगिनी कुछ नहीं कंटेस्ट कर पाएंगे, ये तो सही है ना.
उत्तमम् उत्तमम्. अस्तु, स्वस्यैः एकं वाक्यं रचयतु सुधा भगिनी. यथा अहं न्यू मेक्सिको प्रदेशे शान्तिम् अनुभवामि तथा मम गृहे न अनुभवामि. वदतु भगिनि.
यथा यथा किमपि
यथा अद्य सूर्योदयः भवति तथा वः न अभवत्. इत्युक्ते यथा तथा इत्युक्ते जिस तरीके से
यथा मानुषस्य मैण्ड् इत्युक्ते संस्कृतभाषा मनस्
अस्ति अस्ति मनस् सकारान्तपदमस्ति नपुंसकलिङ्गे
मनस् यथा मानुषस्य मनस् मनस् एव भवति वा
मनस् सकारान्त अस्ति मनसः मनसि मनांसि इति
मनसः मनसः यथा मानुषस्य मनसः कार्यं करोति तथा अन्य किमपि न करोति
प्राणी अन्य किमपि प्राणी पुनः वदतु
यथा मानुषस्य मनसः कार्यं करोति तथा किमपि अन्य
प्राणी न शक्यते
प्राणी न शक्यते प्राणिन् वा प्रातिपदिकं प्राणि
गुणिन्वत्
गुणिन्वत् ओके
यथा संस्कृत संस्कृतं भाषायाः विभक्त्यः सन्ति तथा अन्य भाषां न भवन्ति
भाषायां
विभक्ति, तो विभक्ति का मतिवत प्रथमा का बहुवचन उपयोग में लिया। जैसी विभक्तियां संस्कृत भाषा में है वैसी अन्य कोई भी भाषा में नहीं, ठीक है? यथा तथा के लिए ठीक है क्या, या ये नहीं बैठेगा?
विभक्ति रूपाणि संस्कृत भाषायां भवन्ति तथा विभक्ति रूपाणि अन्य भाषायां न भवन्ति इति वा?
भगिनी भवती रुग्णा अस्ति वा?
किञ्चित् किञ्चित् चिन्ता नास्ति, अस्तु।
यथा राजा भवति तथा प्रजाः भवन्ति।
पुनः वदतु।
यथा राजा भवति तथा प्रजाः भवन्ति।
वाह, मुझे भी ऐसे राजा के देश में जाना है।
यथा राजा भवति तथा प्रजा भवति। प्रजा अपि एकमेव। अस्तु अस्तु, अन्य वाक्यम् अपि वदतु। यथा माता कार्यं करोति तथा शिशवः अपि उदयतु।
एकवारं पुनः वदतु भगिनि।
यथा गृहे माता कार्यं करोति कार्याणि करोति तथा शिशवः
तथा शिशवः कुर्वन्ति
कुर्वन्ति अपि च अनुसरन्ति
अनुसरन्ति
अनुसरन्ति अपि च प्रयत्नं कुर्वन्ति किमपि। यथा नद्यां जलं वहन्ति तथा सरोवरे न वहन्ति। अस्तु, अहं किञ्चित् आरम्भं कुर्मः, भवती पूरयतु। यथा वृक्षे पुष्पम् अस्ति, पूरयतु। यथा
वृक्षे पुष्पम् अस्ति इति यथा वृक्षे पुष्पम् अस्ति तथा एव पत्राणि सन्ति।
सुन्दरं, तथैव पत्राणि सन्ति, सुन्दरम्। अस्तु, यथा आकाशे किं यथा आकाशस्य वर्णः अस्ति, कविता भगिनी?
तथा यथा आकाशे वर्णम् अस्ति, जैसा आकाश में कलर है वैसा
न,
तथा वर्णस्य वस्त्रं मैंने पहना है मम पार्श्वे नास्ति
तथा समुद्रस्य अपि भवति
समुद्रस्य वर्णः अपि
भवति
वदतु पुनः
यथा आकाशे आकाशस्य वर्णं भवति वर्णः भवति तथा समुद्रस्य जलं भवति
उत्तमम् अस्तु यथा वयम् अभ्यासं कुर्वन्ति सुधा भगिनी
यथा वयम् अभ्यासं कुर्वन्ति तथैव तथैव संस्कृतं ज्ञातुं शक्नुमः
तथैव संस्कृतं ज्ञातुं शक्नुमः तथैव करणीयम् तथैव करणीयम् तथैव समीचीनम् अपि भवितुमर्हति तथैव अहं तथैव अहं लभते
तथैव मां विद्यायाः तथैव मां विद्यायाः लभते
विद्यायाः लभते न तथैव मया लभ्यते
ओके मेरे
तथैव उसी तरीके से मुझे लाभ होता है
ओके
मुझे लाभ होता है इन द सेंस आई बिकम द रिसीवर ऑफ द लाभ मया लभ्यते तथैव मया लभ्यते उत्तमम् उत्तमम् यथा खगः आकाशे डयति वदतु यथा आकाशे खगः डयति कविता भगिनी
तथा मम नेत्राभ्यां दिखते हैं तो कैसे बोलूं मेरी आँखों में भी वैसे दिखते हैं
अधुना की दृश्य तुलना अस्ति
अच्छा जैसे जैसे आकाश में बादल दिखाई देते हैं
ना 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 खगः डयति खगः इत्युक्ते चिड़िया
अच्छा अच्छा हाँ
डयति उड़ती है उड़ता है
ओके
हाँ तथा
नहीं सॉरी नहीं आ रहा मन में सुधा भगिनी
यथा आकाशे खगाः डयन्ति तथा एव अहं
डयितुं
इच्छामि
तथा अहं दयितुम् इच्छामि अपि च तथा
मेरा मन भी वैसे ही उड़ता है के मन में
वदतु वदतु तथा मम मनः
I don't know the fly ka word. I'll just have to check.
Dayati.
Dayati. Tatha mama manaha api dayati.
Dayati. Tatha vimanani na dayanti. Yatha pakshina dayanti. तथा विमानानि न डयन्ति आकाशे अस्तु यथा शुनकः धावति वदतु
यथा शुनकः धावति तथा पिपीलिका न धावति
तथा पिपीलिका न धावितुं
शक्नोति
उत्तमम् यथा यथा मम माता वदति तथा वदतु कविता भगिनी
अहं न करोमि
अहं न शक्नोमि तथा माता वदति तथा अहं न शक्नोमि उत्तमं यथा व्यजनं चरति भ्रमति तथा
यथा व्यजनं भ्रमति तथैव मम मनसः भ्रमति
तथैव वयं सर्वे मनसि भ्रमन्ति उत्तमम् उत्तमम् अस्तु अस्तु अद्य कोऽपि प्रश्नः अस्ति वा इति विषये अस्तु गृहपाठरूपेण पञ्च वाक्यानि रचयतु प्रेषयतु अपि अस्तु कविता भगिनी अन्तिममङ्गलाचरणानि अपि च शान्तिपाठः किमपि वदतु भगिनि
जस्ट द लास्ट सेंटेंस उसमें क्या था मीनिंग सुधा भगिनी व्यज वाले शब्द का
व्यजनम इत्युक्ते फैन
ओके वर्गस्य अन्ते मंगलाचरणं वदामि ओम पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॐ शान्ति शान्ति शान्तिः
धन्यवादः सर्वेभ्यः
धन्यवादः
भगिनी धन्यवादः
विषये वदतु भगिनि
आम् एकनिमिषः अद्य तिथि अषाढ़सूद फाइव सो वी आर प्रोग्रेसिंग टुवर्ड्स पूनम पंचमी है आज की अद्यस्य होगा अद्यस्य तिथि
अद्य तु इति कीदृशपदम् कीदृशपदम् अद्य
अद्य अव्ययपदमस्ति
अव्ययपदम् अद्य तिथि अषाढ सूद पञ्चमी
अद्यतन इति वक्तुं शक्नोमि राइट
अद्यतन
आज की के लिए
हाँ
ठीक है अद्यतन तिथि अषाढ सूद पञ्चमी
अस्तु धन्यवाद सर्वेभ्य नमो नमः
नमो नमः धन्यवाद
आगामी शनिवासरे पतञ्जलि योगसूत्र इति प्राणायाम अभ्यासं भविष्यति वा
न शक्नोमि भगिनि तत्र
न ओके
धन्यवाद
धन्यवाद भगिनि
शक्नोमि मतलब कैपेसिटी कैनॉट डू
हाँ न शक्नोमि
ओके भगिनि धन्यवाद आप दोनों को मेरा प्रणाम
हाँ धन्यवाद भगिनि
धन्यवाद